आलाप।
सुप्रभातम सर्वेभ्यः, उपविशतः। सर्वं कुशलं किम्?
आम् आचार्य।
सुन्दरम्, इदानीं गीतं श्रुणुयाम?
आम् आचार्य।
यूयम अस्माभि स खेलथ वयम युष्माभि स खेलाम। यूयम अस्मभ्यम उपहारम दत्थ वयम युष्मभ्यम उपहारम दद्म। यूयम अस्मत् उपहारम प्राप्नोथ वयम युष्मत् उपहारम प्राप्नोम। युष्माकम अस्मासु विश्वास अस्ति अस्माकम युष्मासु विश्वास अस्ति।
ते बालका सन्ति ता बालिका सन्ति इमे बालका सन्ति इमा बालिका सन्ति।
उत्तमम्। अमृते त्वं वद। जानीमः।
वयं तान् बालकान् जानीमः। वयं ताः बालिकाः जानीमः। वयं इमान् बालकान् जानीमः। वयं इमाः बालिकाः जानीमः।
सुन्दरम्। स्नेहे त्वं वद। किं कृतम्?
तैः बालकैः किं कृतम्? ताभिः बालिकाभिः किं कृतम्? एभिः बालकैः किं कृतम्? आभिः बालिकाभिः किं कृतम्?
अति सुन्दरम्। अनामिके समान वाक्यानि पुनः वद। सः खेलामः।
वयं तहि बालिकैः सह खेलामः। वयं ताभिः बालिकाभिः सह खेलामः। वयं एभिः बालकैः सह खेलामः। वयं आभिः बालिकाभिः सह खेलामः।
अत्युत्तमम्। अमृते त्वं वद। उपहारं दद्मः।
वयं तेभ्यः बालकेभ्यः उपहारं दद्मः। वयं ताभ्यः बालिकाभ्यः उपहारं दद्मः। वयं एभ्यः बालकेभ्यः उपहारं दद्मः। वयं आभ्यः बालिकाभ्यः उपहारं दद्मः।
शोभनम्। प्रगते त्वं वद। समानवाक्यानि पुनः वद। किं रोचते?
तेभ्यः बालकेभ्यः किं रोचते? ताभ्य बालिकाभ्य किं रोचते? एभ्य बालकेभ्य किं रोचते? आभ्य बालिकाभ्य किं रोचते?
सुन्दरम्। विक्रमा त्वं वद। इदानीं दूरं तिष्ठत।
तेभ्य बालकेभ्य दूरं तिष्ठत। ताभ्य बालिकाभ्य दूरं तिष्ठत। एभ्य बालकेभ्य दूरं तिष्ठत। आभ्य बालिकाभ्य दूरं तिष्ठत।
सुन्दरम्। स्नेहे त्वं वद नाम किम्।
तेषां बालकानां नाम किम्, तासां बालिकानां नाम किम्, एषां बालकानां नाम किम्, आसां बालिकानां नाम किम्।
साधु प्रगति अन्तिमं त्वं वद देशभक्तिः अस्ति।
तेषु बालकेषु देशभक्ति अस्ति, तासु बालिकासु देशभक्ति अस्ति, एषु बालकेषु देशभक्ति अस्ति, आसु बालिकासु देशभक्ति अस्ति।
अत्युत्तमम्।